अभयं त्यावा पृथिवीहास्तु नोभयं सोमः सविता नः कृणोतु अभयं नोऽस्तुर्वन्तरिक्ष सप्तऋषाणां च हव्या भयं नोऽस्तु अस्मै ग्रामाय प्रदिशश्च तस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु अशत्रुविन्द्रो अभयनः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः अनमित्रं नो अधरादनमित्रं न उत्तरात् इन्द्रानमित्रनः पश्चादनमित्रं पुरस्कृधि मनसे चेतसे धिया गतय उत चित्तये मत्यै श्रुताय चक्षसे विधेम हविषावयम् अपानाय व्यानाय प्राणाय भूरिधायसे सरस्वत्या गरुव्यचे विधेम हविषावयम् मानो हासिषुर्ऋषयो दैव्या ये तनुपाये मस्तन्वस्तमुजाः अमर्त्यामर्त्यामभिनः स च ध्वमायुर्धत्तं प्रतरं जीवसेनः अवजामिव धन्वनो मन्युं तनोमि ते हृदः यथा समनसो भूत्वा सखायाविव सचावहै सखायाविव सचावह अवमन्युं तनोमि ते अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः अभितिष्ठामि ते मन्यम् पाष्ण्या प्रपदे च यथा वशो न वादिशो मम चित्तमुपायसि परोपेहि मनस्पाप किमशस्तानि शंससि परे हि नत्वा कामये वृक्षां वनानि सञ्चर गृहेषु गोषु मे मनः अवशस निश्शस यत् पराशसो पारिं जाग्रतो यत् स्वपत्तः अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मत् दधातु। यदिन्द्रब्रह्मणस्पतेऽपि मृषा चरामसि प्रचेतानां आङ्गिरसो दुरितात्पात्वं नसः यशसं मेन्द्रो मघवान् कृणोतु यशसन्ध्या वः पृथिवी उभे मे यशसं मा देवः सविता कृणातु प्रियो दानो दक्षिणाय इह स्याम् यथेन्द्रो द्यावा पृथिव्योर्यशस्वान् यथाप औषधीषु यशस्वतिः एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम। यशा इन्द्रो यशा अग्निर्यशः सोमो अजायत यशा विश्वस्य भूतस्याहमस्मि यशस्तमः